यदक्षरपदभ्रष्टम् मात्राहीनम् तु यद्भवेत् तत्सर्वम् क्षम्यताम् देव नारायण नमोऽस्तु ते विसर्गबिन्दुमात्राणि पदपादाक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्व सायीश्वर अपराधसहस्राणि क्रियन्ते हन्निशम् मया दासोऽयमिति माम् मत्वा क्षमस्व सायीश्वर अन्यथा शरणम् नास्ति त्वमेव शरणम् मम तस्मात्कारुण्यभावेन रक्ष रक्ष सायीश्वर हरिः ॐ तत्सत् श्रीसायीश्वरार्पणमस्तु।